श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्यवार्ताः। विदेशमन्त्रिणा जयशंकरेण टोक्यो नगरे क्वाड इति विदेशमन्त्रिणां सम्मेलनानन्तरं प्रोक्तं यत् क्वाड इति अन्यतमः संघः अस्ति यो हि भारत प्रशांत महासागरीय क्षेत्राय निर्बाध सुरक्षित सम्पन्नञ्च अवसराः प्रददाति। अद्य केन्द्रीयान्वेषणाभिकरणेन दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरीवालं विरुध्य राउज एवेन्यू इति न्यायालये आरोपपत्रं प्रस्तुतम्। सर्वोच्च न्यायालयः बिहारे आजीविका प्रवेशयोः 65% जात्याधारितम् आरक्षणं विरुध्य निषेधाज्ञां प्रवर्तितुं पटना उच्च न्यायालयस्य पारितादेशम् अवरोद्धुं स्वीकृतिं नायच्छत्। व्याघ्राणां प्राकृतिक निवासस्थानरक्षणेन सह वैश्विक व्यवस्था प्रवर्तनपूर्वकं व्याघ्र संरक्षण विषये जनजागृतिः समर्थनाय च अद्य अन्ताराष्ट्रिय व्याघ्र दिवसः आचर्यते। अपि च वेनेजुएलायां निकोलस मादुरो तृतीयवारं राष्ट्रपति निर्वाचने विजयम् अध्यगच्छत्। अथ वार्ताः विस्तरेण। विदेशमन्त्रिणा जयशंकरेण प्रोक्तं यत् समयोऽयं संघर्षपूर्णोऽस्ति। स्थिरतायां सुरक्षायां प्रगतौ सम्पन्नतायां वा भवतु अन्ताराष्ट्रियैः विश्वस्तमित्रैः सहयोगो अपेक्षते। तदर्थं क्वाड इति अन्यतमः समकालीनः उदाहरणभूतोऽस्ति। श्रीजयशंकरः क्वाड इति समूहान्तर्गतानां विदेशमन्त्रिणां सम्मेलनानन्तरं वार्ताहरैः सह सम्भाषयन् टोक्यो नगरे उक्तवान् यत् एतत् सन्तोषप्रदमस्ति यत् कियता गाम्भीर्येण व्यवस्थिततया च क्वाड इत्यनेन विदेशनीतयः अन्तर्निहिताः सन्तीति। तेनोक्तं यत् अद्यतनीयम् उपवेशनं दिङ्निर्देशनदृष्ट्या महदुपकारकं वर्तते। श्रीजयशंकरः अवोचत् यत् विश्वसनीयतायाः दूरसंचार प्रौद्योगिक्याः कार्याचरणम् अद्य अन्तःसागरीय सम्पर्कतन्त्रविस्तारश्च आपदुद्धाराय जलवायुकार्येभ्यः आधारभूतसंरचनाभ्यः क्षमताभिवर्धनपूर्वकं प्रशिक्षणाय आतंकवादस्य प्रतिकाराय च सहायकभूतोऽस्ति। डॉ सुब्रह्मण्यम जयशंकरः टोक्यो नगरे क्वाड इत्यस्य विदेशमन्त्रिणां सम्मेलने स्वसमकक्षैः अमेरिका ऑस्ट्रेलिया जापानस्य च विदेशमन्त्रिभिः समं आसीत्। दिल्ली आरक्षिबलेन प्रशासनिक सेवा सन्नद्धता क्षेत्रे जलाप्लावनात् मृत छात्रत्रयस्य प्रकरणे इतोपि पञ्च जनाः निगडिताः सन्ति। संस्थायाः स्वामी अन्तः भूस्थितस्य भवनस्य द्वारघातकादीन् समेत्य 7 जनाः निगडिताः सन्ति। दिल्ली आरक्षिबलेन च प्रोक्तं यत् दोषिणः कठोर न्यायाचरणेन प्रतिदण्डिष्यन्ते इति। मध्यदेहल्याः उपारक्षिनिदेशकेन एम हर्षवर्धनेन प्रोक्तमस्ति यत् अनेन प्रकरणेन सम्बद्धाः सर्वेऽपि जनाः पर्यवेक्षणमार्गेण निस्सारयिष्यन्ते। सर्वविधदृष्ट्या च प्रकरणस्य निरीक्षणं पर्यवेक्षणञ्च भविष्यतीति। तेन एतदपि उक्तं यत् अन्तर्भूमि सदने व्यावसायिक कार्याचरणस्य न कोऽपि आधिकारिकादेशः स्वामिनः पार्श्वे आसीदिति। आरक्षिबलेन प्रोक्तं यत् अत्र नगरनिगमस्य च अपि काचित् भूमिका अस्ति नास्ति वेति निरीक्षिष्यते। साम्प्रतं यावत् 13 शिक्षणसंस्थाः राजेन्द्रनगरे दिल्ली नगर निगम इत्यनेन पूर्णतया पिहिताः सन्ति। अद्य केन्द्रीयान्वेषणाभिकरणेन दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरीवालं विरुध्य राउज एवेन्यू इति न्यायालये आरोपपत्रं प्रस्तुतम्। केजरीवालः यो हि आम आदमी पार्टीति दलस्य राष्ट्रिय संयोजकोऽपि अस्ति, सः जून मासस्य 26 दिनांके केन्द्रीयान्वेषणाभिकरणेन तिहाड़ कारागारात् निगडितोऽस्ति, यत्र सः धनशोधन प्रकरणान्तर्गतं प्रवर्तन निदेशालयेन निगृहीतः आसीत्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तंत्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीय वित्त संकल्पना सत्रस्य अनन्तरं नवदिल्ल्यां आयोजयिष्यमाणस्य सम्मेलनस्य उद्घाटन सत्रं सम्बोधयिष्यति। सम्मेलनस्य अस्य विषयः अस्ति जर्नी टुवर्ड्स विकसित भारत। सम्मेलनमेतत् भारतीयोद्योग परिसंघः आयोजयति। सहैव अस्योद्देश्यं विकासाय प्रशासनिक दृष्टिकोणस्य अस्यां दिशि उद्योगस्य च भूमिकाम् अभिलक्ष्य रूपरेखायाः प्रस्तुतीकरणमिति। अस्मिन् सम्मेलने उद्योग सर्वकार राजनैतिक समुदाय विशेषज्ञ समुदायान् अन्यजनान् चातिरिच्य सहस्राधिकाः प्रतिभागिनः सम्मिलिताः भविष्यन्ति। श्रमाजीविका मन्त्री डॉ मनसुख मांडविया अकथयत् यत् देशे वित्तोपार्जनस्य वृत्तेः च विविधावसराः सन्ति। सहैव वर्तमान सर्वकारस्य नीतिगत हस्तक्षेपेण एव देशे वृत्तिरहितानां प्रतिशतम् अपचित्य 3.2% अभवत्। लोकसभायां प्रश्नकालावधौ पूरक प्रश्नानां उत्तराणि यच्छता तेन आशा प्रकटिता अस्ति यत् आगामि वर्षेषु वृत्तिरहितानां प्रतिशतता 3% न्यूना भविष्यति। वित्त संकल्पना पत्रं प्रशंसयन् डॉ मांडविया अकथयत् यत् प्रधानमन्त्रिणः वित्तानुदानेन पञ्चवर्षाणाम् अवधौ चतुष्कोटि युवानः वृत्तिकौशलयोः अवसरान् प्राप्स्यन्ति। सः प्रोक्तवान् यत् एतल्लक्ष्यं प्राप्तुं 2,00,000 कोटि रूप्यकाणि व्ययीकरिष्यन्ते। सर्वोच्चन्यायालयः स्वस्य 75 वर्षपूर्तावधौ संस्मारकत्वेन अद्यारभ्य विशेष लोक न्यायालय सप्ताहम् आयोजयति। आकाशवाण्या सह अनन्यतया सम्भाषयन् न्यायाधीशः के वी विश्वनाथन् उक्तवान् यत् अस्योपक्रमस्य उद्देश्यं सर्वोच्च न्यायालये प्रतिलम्बित प्रकरणानाम् उपरि दृष्टिपातो वर्तते। सः प्रकरण पंजीकर्तृभ्यः लोकन्यायालयस्य अथवा जनन्यायालयस्य लाभग्रहणाय प्रोत्साहयति स्म। सः उपक्रममिमं स्वेच्छया सौहार्दपूर्णरीत्या च विवाद निराकरणाय मञ्चः अस्ति इति वर्णितवान्। न्यायमूर्तिः विश्वनाथनः इत्यपि अवदत् यत् लोकन्यायालयाः तादृशाः साधनभूताः सन्ति यत्र न्यायस्य प्राप्तिः कुशलतया अल्पव्ययेन च भवितुं शक्नोति इति। सर्वोच्च न्यायालयः बिहारे आजीविका प्रवेशयोः 65% जात्याधारितम् आरक्षणं विरुध्य निषेधाज्ञां प्रवर्तितुं पटना उच्च न्यायालयस्य पारितादेशम् अवरोद्धुं स्वीकृतिं नायच्छत्। न्यायालयेन बिहार सर्वकारस्य न्यायालये प्रतिष्ठापितां प्रार्थनाञ्च अधिकृत्य सूचनादेशः अपि प्रकाशितोऽस्ति। अवधेयं यत् विगते मासे पटना उच्च न्यायालयेन वंचितवर्गाणाम् अनुसूचित जाति जनजाति वर्गाणाञ्च कृते प्रशासनिक सेवासु राज्यस्य उच्च शिक्षण संस्थानेषु च प्रवेशाय आरक्षणं 50% संवर्ध्य 65% कर्तुं बिहार सर्वकारस्य अधिसूचना निरस्तीकृता आसीत्। अद्य अन्ताराष्ट्रिय व्याघ्र दिवसः आचर्यते। अस्य दिवसस्य मुख्योद्देश्यं व्याघ्राणां प्राकृतिक निवासस्थान संरक्षणेन सह वैश्विक व्यवस्था प्रवर्तनपूर्वकं व्याघ्र संरक्षण विषये जनजागृतिः समर्थनञ्चास्ति। विश्व वन्य जीव कोषानुसारं भारते सम्प्रति व्याघ्र संख्या वर्धमाना स्थिरा च वर्तते। भारतस्य व्याघ्र संरक्षण वर्गः 370-1990 वर्षे स्थापितः। सम्प्रति भारते विश्वस्य 80% परिमिताः व्याघ्राः निवसन्ति। पर्यावरण वन जलवायु परिवर्तन मन्त्री भूपेन्द्र यादवः अद्य विभागस्य राज्यमन्त्री कीर्तिवर्धन सिंहेन सह राष्ट्रिय व्याघ्र संरक्षण प्राधिकरण नवदिल्ल्याः 25वें उपवेशनस्य अध्यक्षतां कृतवान्। श्रीयादवेन व्याघ्र संरक्षणे स्वदेशीय प्रौद्योगिक्याः उपयोगस्य सम्भावनायाः अन्वेषणस्य आवश्यकता विषये बलं दत्तम्। भारतस्य ऋतुविज्ञान विभागेन आगामिषु 5 दिनेषु हिमाचलप्रदेशे उत्तराखण्डे पूर्व राजस्थाने च व्यापकरूपेण लघुतः मध्यमपर्यन्तं वर्षाणां पूर्वानुमानं कृतमस्ति। आगामिषु 5 दिवसेषु जम्मू कश्मीर लद्दाख गिलगित बल्तिस्तान मुजफ्फराबाद पंजाब हरियाणा चंडीगढ़ दिल्ली उत्तरप्रदेश पश्चिम राजस्थानेषु च विकीर्णवृष्टेः पूर्वानुमानं कृतमस्ति। वेनेजुएलायां निकोलस मादुरो तृतीयवारं राष्ट्रपति निर्वाचने विजयम् अध्यगच्छत्। निर्वाचन परिषदः प्रमुखः एल्बिस एमोरोसो अकथयत् यत् गणितेषु 80% मतेषु राष्ट्रपतिः मादुरो 51% मतानि प्राप्य विजयं प्राप्नोत् इति वार्ताः।